सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्. गत सप्ताहपूर्वं यदा वयं कस्मिन् विषये वयं पठितवन्तः, वयं पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः इति विषये वयं पठितवन्तः किल. तस्मिन् विषये वयं अभ्यासः इति अस्ति, तत्र गृहपाठरूपेण वयं करणीयम् इति चिन्तितवन्तः किल. पुटसङ्ख्या 32 32 मध्ये पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः एतेषु उचितेन शब्देन रिक्तं स्थानं पूरयत इति अस्ति. तद् गृहपाठरूपेण वयं कुर्मः इति अङ्गीकृतवन्तः. अस्तु, जानकी भगिनी अस्ति वा?
आं भगिनि,
क्षम्यताम्, अहं ध्वनिमुद्रणम् अप्लोड् कर्तुं विस्मृतवती, अतः सर्वे न श्रुतवन्तः. गृहे किं कक्षायां किं किं कृतवन्तः इति न श्रुतवन्तः किल, क्षम्यतां, मम दोषः एव. कः शक्तुं शक्नोति द्वितीय अभ्यासः?
अहं प्रयत्नं करोमि.
करोति वा? अहं प्रयत्नं करोतु, अहमपि सहायं करोमि, चिन्ता मास्तु, करोतु कृपया. गतवर्गे वयं पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः इति एकादशपाठे गृहपाठरूपेण द्वितीय अभ्यासः वयं करणीयमिति निश्चितं कृतवन्तः. तस्मिन् तत् करोति वा भवती?
आं भगिनि.
पाण्डवाः
एकटीलं स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति.
पाण्डवाः शिखण्डिनं डाश् स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. पुनः वदतु कृपया.
पाण्डवाः शिखण्डिनं पुरतः.
सत्यं सत्यं, पुनः वाक्यं पूर्णतया वदतु कृपया.
पाण्डवाः शिखण्डिनं पुरतः स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति.
सत्यं, समीचीनम्, अग्रे पठतु कृपया.
दुर्योधनः वैशम्पायनसरोवरस्य डाश् आसीत्. वैशम्पायनसरोवरस्य
दुर्योधनः कुत्र आसीत्? दुर्योधनः वैशम्पायनसरोवरस्य डाश् आसीत्. पुरतः आसीत् वा, पृष्ठतः आसीत् वा, वामतः आसीत् वा, दक्षिणतः आसीत् वा, कुत्र आसीत्? उपरि रक्तवर्णे अस्ति किल, पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः. किं कथम् उपयोगं कुर्मः चेत् समीचीनं भवति?
दुर्योधनः अन्तः.
सत्यं सत्यं, दुर्योधनः पूर्णतया वदतु, पूर्णतया वाक्यं पूर्णतया वदतु कृपया.
दुर्योधनः वैशम्पायनसरोवरस्य अन्तः आसीत्.
समीचीनं, सुन्दरं सुन्दरम् अस्ति. अस्तु, धन्यवादः भगिनि, धन्यवादः.
धन्यवादः.
अनन्तरं वीणाबेन् भगिनि.
आं भगिनि,
पठति वा तृतीयवाक्यम्?
आम्. अर्जुनः विश्वरूपिणं कृष्णं च नमस्कृतवान्. पृष्ठतः श्लोक 40 मध्ये.
श्लोकः अस्ति एकादश अध्याये
नमः पुरस्तादथ पृष्ठतस्ते नमोस्तु ते सर्व एव सर्व पृष्ठतः
केवलं पृष्ठतः एव भवति वा
आं भगिनि किं
केवलं पृष्ठतः एव भवति वा
न चारोर् कृष्णतः चारोर् दिक्ते
न न न अर्जुनः विश्वरूपिणं कृष्णं डेश् डेश् च नमस्कृतवान् च इति अस्ति चेत् तस्य पूर्वम् अनेकाः शब्दाः भवितुं
भगिनि
भवितुमर्हति
पुरतः अपि पृष्ठतः
सत्यं सत्यं तादृशं चिन्तनीयं समीचीनं पुनः वाक्यं पूर्णतया वदति वा
अर्जुनः विश्वरूपिणं कृष्णं पुरतः पृष्ठतः च नमस्कृतवान्
सुन्दरं सुन्दरं बहु समीचीनम् अग्रे पठतु
सत्त्वस्थः तामसः गच्छन्ति
पुनः पठतु
सत्त्वस्थः
अत्र एकनिमिषः अत्र अस्ति सत्त्वस्थाः बहुवचने
सत्त्वस्थाः गच्छन्ति सः देश् गच्छन्ति
कुत्र सत्त्वस्थाः कुत्र गच्छन्ति अनन्तरं तामसाः कुत्र गच्छन्ति
सत्त्वस्थः मध्ये सत्त्वस्थाः ऊर्ध्वं गच्छन्ति तामसाः मध्ये तिष्ठन्ति
अस्तु भगिनि परन्तु रक्तवर्णे के के पदानि सन्ति इति द्रष्टव्यम्
श्लोकं दृष्ट्वा वदति भगिनि
श्लोकमस्य सहायार्थम् अत्र कृतवन्तः परन्तु यद् रक्तवर्णे कानि पदानि सन्ति ते एव उपयोगं कृत्वा भवति
सत्त्वस्थः उपरि ऊर्ध्वम् उपरि उपरि गच्छन्ति तामसः मध्ये अर्थः किं मध्ये अन्तः न न न तामसः अधः
अधः
गच्छन्ति
सत्यं सत्यं सत्त्वस्थाः उपरि गच्छन्ति तामसाः अधः गच्छन्ति
धन्यवादः भगिनि
स्पष्टमस्ति वा
आम् आम्
समीचीनं
धन्यवादः
अत्र अत्र मध्यः इति पदं नास्ति किल अतः उपरि अधः एव भवितुमर्हति सत्त्वस्थाः उपरि गच्छन्ति तामसाः अधः गच्छन्ति समीचीनं धन्यवादः
धन्यवादः
आम् समीचीनं भगिनि पद्मिनी भगिनि समीचीनम् अत्र अन्य इत्युपरि वक्तुम् इच्छामि सुधा भगिनी भवती पृष्टवती किल गतवर्गे सावधानं मधु भगिनी अपि पृष्टवती इति अहं पृष्टवती अहं चिन्तयामि सावधानम् इति पदस्य विषये वयं किञ्चित् चर्चा कृतवन्तः किल तस्मिन् विषये किञ्चित् अहं पठितवती सावधानम् इति शब्दः अव्ययं भवति सावधानम् इति शब्दः अव्ययं भवति त्रिषु लिङ्गेषु तादृशं नास्ति केवलम् अव्ययमेव विभक्तिः नास्ति लिङ्गं नास्ति तादृशं भवति सावधानं सावधानं पठत इति अव्ययमेव अस्ति परन्तु सावधानतया इति अस्ति चेत् कथं भवितुम् अर्हति अत्र तया इति अस्ति चेत् स्त्रीलिङ्गरूपं किल परन्तु अत्र सावधानम् इति शब्दस्य भावः अस्ति सावधानता इति उदाहरणार्थम् अहम् अन्य पदं स्वीकृत्य विवरणोमि विवरणं करोमि उदाहरणार्थं सुन्दरः इति शब्दं स्वीकुर्मः. सुन्दरः इत्युक्ते सुन्दरः अस्ति इति वदामः किल, सुन्दरः इति शब्दः अस्ति. तस्य भावः किम् इति वदामः चेत् सुन्दरत्वम् इति अस्ति, सुन्दरता इति अस्ति, सौन्दर्यम् इति अस्ति इति अन्य सुन्दरत्वं, सुन्दरता, सौन्दर्यम् इति वदामः चेत् तस्य सुन्दरः इति पदस्य भावः इति अर्थः भवति. सुन्दरत्वम् इत्युक्ते सुन्दरशब्दस्य भावः सुन्दरत्वम्. सुन्दरता इत्युक्ते किं? सुन्दरः शब्दस्य भावः सुन्दरता. सौन्दर्यम् इत्युक्ते अपि तादृशमेव, परन्तु त्रिषु रूपं भिन्नः अस्ति, परन्तु अर्थः ये समानमेव. सुन्दरम् इत्युक्ते किम् इति वयम् अवगच्छामः किल, अर्थः समानमेव. परन्तु अत्र किमर्थं सुन्दरत्वम् इति अस्ति, सुन्दरता इति अस्ति, सौन्दर्यम् इति अस्ति चेत् अत्र लिङ्गभेदः अस्ति. सुन्दरत्वम् इति अस्ति चेत् नपुंसकलिङ्गशब्दः, सुन्दरता इति अस्ति चेत् स्त्रीलिङ्गशब्दः, सौन्दर्यम् इति अस्ति चेत् नपुंसकलिङ्गशब्दः. अवगच्छति वा सर्वे? प्रश्नः अस्ति वा अत्र?
हा भगिनि, अवगतं.
सुन्दर इदानीम् अहं किम् इत्यु उक्तवती चेत् एकं पदम् अस्ति चेत् तस्य भावः अपि अस्ति. उदाहरणार्थं पुस्तकम् इति पदं स्वीकुर्मः, पुस्तकम् इति पदम् अस्ति चेत् तस्य भावः पुस्तकत्वम् अस्तु. अन्य उदाहरणमस्ति घटः इति एकः शब्दः अस्ति, तस्य भावः इत्युक्ते घटत्वम् इति तस्य भावः. पुस्तकम् इति पदमस्ति, तस्य भावः पुस्तकत्वम्. घटः इति एकं पदम् अस्ति चेत् तस्य भावः घटत्वम्. सुन्दरः इति शब्दः अस्ति चेत् तस्य भावः सुन्दरत्वम्. अत्र सुन्दरः इति शब्दस्य भावः अन्यरूपम् अन्यरूपम् अस्ति, अन्यरूपे अपि वक्तुं शक्नुमः. सुन्दरत्वं, सुन्दरता, सौन्दर्यं तादृशमपि वक्तुं शक्नुमः. अवगच्छन्ति वा सर्वे?
प्रश्नः अस्ति, भवती उक्तवती सावधानतया,
अत्र आगच्छामि, अत्र आगच्छामि. एतत् पर्यन्तं सर्वे अवगच्छन्ति चेत् अग्रे सावधानम् इति शब्दस्य विषये अहं वदामि. अस्तु, सावधानम् इति शब्दः अव्ययं भवति किल. तस्य भावः सावधानता इति अस्ति. सावधानता इति तस्य भावः. तस्य लिङ्गं किम् इत्युक्ते स्त्रीलिङ्गरूपं, स्त्रीलिङ्गं. सावधानता स्त्रीलिङ्गं भवति, अतः तस्य विभक्तिः इत्युक्ते तृतीया विभक्ति एकवचनं सावधानतया भवति. यदा भावः अस्ति चेत् तस्य विभक्तिः अपि अस्ति. सुन्दरत्वम् इति अस्ति चेत् तस्य विभक्तिः अपि अस्ति, सावधानता इति अस्ति चेत् तस्य विभक्तिः अपि अस्ति. अत्र सावधानम् इति शब्दः अव्ययम् अस्ति. सावधानम् इति शब्दः अव्ययं भवति, तस्य भावः सावधानता. सावधानता स्त्रीलिङ्गम् अस्ति, अतः तस्य तृतीया विभक्तिः सावधानतया इति भवति. अतः एव सावधानतया परिशीलयत इति तृतीया विभक्ति उपयुज्य अत्र लिखितवन्तः. स्पष्टमस्ति वा नास्ति वा? प्रश्नः अस्ति चेत् पृच्छन्तु, चर्चां कृत्वा स्पष्ट सुधा भगिनि, भवत्याः मनसि कथमस्ति?
आं भगिनि, स्पष्टमस्ति भगिनि.
स्पष्टमस्ति वा मधु भगिनि?
मम एकः प्रश्नः अस्ति.
ऊर्मिला भगिनि वा? ऊर्मिला भगिनि वा? वदतु कृपया.
अवधानम् इट्स् अव्यय, राइट? सो अव्यय,
सत्यं सत्यम्.
अव्यय कोऽपि, देयर इज नो लिंग.
सत्यं, लिंगं नास्ति, विभक्तिः नास्ति, वचनं नास्ति.
किन्तु इफ् यूस् तया वा सावधान ता वा
सावधानम् इति शब्दः अव्ययं, तस्य लिङ्गं नास्ति, विभक्तिः नास्ति, वचनं नास्ति, परन्तु तस्य भावः अस्ति किल, भावः अस्ति चेत् भावः सावधानता इति तस्य भावः, परन्तु भावः अस्ति चेत् तस्य विभक्तिः लिङ्गं भवति अस्ति.
अस्तु,
सावधानम् इति शब्दं सावधानम् इति शब्दः अव्ययं, केवलम् अव्ययमेव, परन्तु तस्य भावः चिन्तयामः चेत् तस्य लिङ्गम् अस्ति. उदाहरणार्थं सुन्दरः इति शब्दः स्वीकुर्मः चेत् सुन्दरः पुल्लिङ्गशब्दः, परन्तु तस्य भावः चिन्तयामः चेत् सुन्दरत्वम् इति अस्ति. सुन्दरत्वम् इति भावः अस्ति चेत् सुन्दरत्वं नपुंसकलिङ्गशब्दः. भावस्य अर्थः पदस्य अर्थः अपि समानं भवितुम् अर्ह समानं भवति इति नास्ति. अवगच्छति वा ऊर्मिला भगिनी?
अस्तु अस्तु.
चिन्तयति वा अथवा प्रश्नः अस्ति वा?
अहं चिन्तयामि, अहम् अवगच्छामि अपि.
सुन्दरं सुन्दरम्. अस्तु अस्तु
भगिनी.
वदतु माधवी भगिनी वा, सुधा भगिनी वा?
माधवी भगिनी.
अस्तु वदतु कृपया.
भगिनी अत्र भवती वदति सावधानतया स्त्रीलिङ्गशब्दः अस्ति खलु?
सत्यं सत्यं.
तत् समानं पुल्लिङ्गशब्दः नपुंसकलिङ्गः शब्दाः अपि भवन्ति वा?
भवितुम् अर्हति, इदानीम् अहं न जानामि, भवितुम् अर्हति परन्तु इदानीम् अहं न जानामि. परन्तु किमर्थं सुन्दरः शब्दः अहं जानामि चेत् सरलतया वयं तस्मिन् विषये पठामः, अतः तस्मिन् विषये अहं वक्तुं शक्नोमि. सुन्दरत्वं, सुन्दरता, सौन्दर्यम् इति अस्ति इति. परन्तु सावधानता इति शब्द तस्मिन् विषये त्रिषु लिङ्गेषु अस्ति वा इति अहं भवितुम् अर्हति परन्तु अहं न जानामि. भवितुम् अर्हति.
अस्तु भगिनि, त्रिषु लिङ्गेषु भवितुम् अर्हति,
भवितुम् अर्हति. आं, भावः त्रिषु लिङ्गेषु भवितुम् अर्हति.
आम् अस्तु भगिनि,
परन्तु अहं न जानामि. तस्य सावधानता इति स्त्रीलिङ्गरूपम् अस्ति, परन्तु तादृशं पुल्लिङ्गरूपमपि अस्ति वा इति अहं न जानामि.
अस्तु भगिनि,
परन्तु अत्र किमर्थम् अहम् तस्मिन् विषये जानाति चेत् अत्र सावधानतया इति अस्ति किल, अतः तस्मिन् विषये एव अहं किञ्चित् चर्चां कृत्वा ज्ञातवती.
आं भगिनि, धन्यवादः भगिनि.
धन्यवादः, धन्यवादः. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा
भगिनी?
भगिनी वा,
एकः प्रश्नः अस्ति अत्र, सावधानतया इति स्थाने सावधानं परिशीलयत इति अपि वक्तुं शक्नुमः वा?
अस्तु, वक्तुं शक्नुमः, परन्तु सावधानतया इति किमर्थं वक्तुं किमर्थम् अत्र उचितं भवति इति चिन्तयति भवती? अन्य डु हेव् एनी अदर् रीसनिङ्ग्? सावधानतया किमर्थं सावधानतया परिशीलयत इति अस्ति अत्र, किमर्थं तृतीयविभक्तिः योजितम् अस्ति अत्र? कारणम् अन्य कारणं भवति किल, अत्र किमर्थं तृतीया विभक्तिः भवति इति कारणम् अस्ति किल?
तदेव शङ्का अस्ति भगिनि, किमर्थं तृतीया विभक्तिः प्रयुज्यामहे इति.
सावधानतया तृतीयविभक्ति कुत्र कुत्र वयं प्रयोगं कुर्मः?
यत्र कुत्रापि
साधा बहु सरल प्रयोगं किं भगिनि तृतीयविभक्त्या वदतु. कः का वदति
भगिनि? सावधानम् अव्ययि, बट् सावधान विशेषणमस्ति.
किं पुनः? अहं न अवगच्छामि, पुनः वदतु. चम्पा भगिनी वा?
चम्पा भगिनी
वदतु कृपया. वदतु.
सावधानम् अव्ययः अस्ति, परन्तु सावधान विशेषणमस्ति.
न अत्र विशेषणविशेषे तादृशविषयम् अत्र नास्ति. अत्र एकविषयः अहं सुधा भगिन्याः प्रश्नस्य उत्तरम् अहम् एकवारं उक्त्वा अहं पुनः आगच्छामि. अत्र अहं भगिनी सुधा भगिनी अहं चिन्तयामि अत्र सावधानतया किमत्रम् अस्ति चेत् अत्र माध्यमं माध्यमम् अत्र उक्तमस्ति. कथं चिन्तनीयं, कथं परिशीलनीयं, सावधानतया परिशीलयतु इति. सावधानम् इत्युक्ते भवितुम् अर्हति, सावधानमपि भवितुम् अर्हति. सावधानं पठत, सावधानं परिशीलयत इति अपि भवितुम् अर्हति. दोषः नास्ति, दोषः नास्ति. परन्तु अत्र अन्यकारणमपि अस्ति सावधानतया इति किमर्थम् उक्तवन्तः चेत् कथं चिन्तनीयं, कथं परिशीलनीयम् इति एकं वक्तुम् इष्टवन्तः यः लिखितवन्तः पुस्तकम्. अतः सावधानतया इति माध्यमं वक्तव्यमिति सः चिन्तितवान्. अतः एव सावधानतया इति माध्यमं भवति चेत् समीचीनं भवति इति अत्र लिखितम् अस्ति.
तदपि प्रयत्नमेव इति
भगिनि. आम् आम् अन्यरीत्या आम् आम् सत्यं सत्यं. सावधानं परिशीलते इति अस्ति चेदपि दोषः नास्ति. सावधानं पठत, सावधानं परिशीलयत, सावधान तादृशं दोषः नास्ति. परन्तु अत्र सावधानतया इति माध्यमम् अस्ति चेत् समीचीनं भवति इति. अतः एव अत्र सावधानतया इति तृतीयाविभक्तिः उपयोगं कृतवन्तः.
उपरि सावधानं पठत अवगच्छत च रक्तवर्णेन दत्तमस्ति किल, तद्दृष्ट्वा एव एतत् प्रश्नः.
सत्यं सत्यं समीचीनमेव. आम् उत्तमप्रश्नः, समीचीनं समीचीनम्. आम्
धन्यवादः भगिनि.
धन्यवादः भगिनि. अन्य कोऽपि राधिका भगिनी प्रश्नः अस्ति वा?
इन् द डिक्शनरि सावधानम् इस् अव्ययम् इट् इस् रिटन् नथिङ्ग् मोर् इट् इस् रिटन् देर् मेडम्. योर् एक्स्प्लनेशन् सीम्स् टु बि करेक्ट् रैट्. सावधानतया सावधानता विल् बि द भाव अण्ड् तया विल् बि करेक्ट्. सीम्स् टु बि रैट् मेडम्.
अस्तु धन्यवादः भगिनि. चम्पा भगिनी अथवा वीणाबेन् भगिनी भवत्याः प्रश्नः किं विशेषणम् अस्ति वा इति भवत्याः प्रश्नः किल?
न, मम मम समीपे बृहत् क्रोस् अस्ति, तर्हि सावधानम् अव्यय सावधान विशेषण अस्ति.
सावधानम् अव्ययं सत्यं. भवत्याः प्रश्नः किं, सावधान इति अस्ति चेत् विशेषणम् इति भवति इति अत्र लिखितमस्ति वा? विशेषणरूपेण भवितुम् अर्हति इति अत्र लिखितं इति अहं चिन्तयामि. अहं तस्मिन् विषये अहं न जानामि भगिनि. सावधानं पठत, केवलम् अव्ययम् इति एव चिन्तयामः इदानीं. अस्तु भगिनि.
अस्तु अस्तु भगिनि.
अस्तु अग्रे गच्छामः वा? अस्तु अस्तु. इदानीम् एकादशपाठस्य विषये वयं चर्चां कृतवन्तः. तस्मिन् विषये प्रश्नाः सन्ति वा? अनन्तरं पेज् नम्बर् 34 तस्मिन् विषये तस्मिन् पुटे अपि वयं गृहपाठरूपेण कुर्मः इति अङ्गीकृतवन्तः किल, यथा वर्णक्रमः लिखित्वा आगच्छामः इति वयम् अङ्गीकृतवन्तः किल. सर्वे कृतवन्तः वा? तस्मिन् विषये प्रश्नः अस्ति वा?
प्रश्नः नास्ति भगिनि.
अहं केवलं परिचय केवलम् अहं परीक्षा करोमि. अस्तु प्रगति भगिनि.
आं भगिनि.
आम् आरम्भं कर. शूर अकार कीदृशशब्दः इति भवती वदतु. अकारान्तशब्दः अजन्तशब्दाः वा हालन्तशब्दाः वा इति वदतु.
अजन्तशब्दः
सत्यकि
इकारान्त
अजन्तशब्दः वा हलन्तशब्दः वा?
हरि ओम्।
हरि ओम्। अजन्तशब्दः वा हलन्तशब्दः वा?
सात्यकी इकारान्त अजन्त।
सत्यं सत्यं सत्यम्। अनन्तरं पृथ्वी
इकारान्त अजन्त।
सत्यं सत्यं। धन्यवादः पद्मिनी भगिनी।
धन्यवादः। आं भगिनि,
स्त्री
स्त्री ईकारान्त अजन्तशब्दः,
कुल
अकारान्त अजन्तशब्दः, नरक अकारान्तः अजन्तशब्दः,
कृपा
कृपा अकारान्तः अजन्तशब्दः, प्रीति इकारान्तः अजन्तशब्दः।
सत्यं धन्यवादः।
धन्यवादः
भगिनि। अनन्तरं मधु भगिनि।
आं भगिनि,
शस्त्र
ऋकारान्त अजन्तशब्दः भगिनि।
शस्त्र ऋकारान्त भवति वा? अत्र प्रातिपदिकमेव अस्ति।
अकारान्त भगिनि।
शस्त्रं शस्त्रम् इति अस्ति, शस्त्रम्, अतः अकारान्त नपुंसकलिङ्गशब्दः।
नपुंसकलिङ्गशब्दः।
आम् आम् सत्यं। शरीर
शरीर अकारान्त नपुंसकलिङ्गं भगिनि।
शरीरं आम् आम्।
कर्तु
कर्तृ
ऋकारान्त पुल्लिङ्गशब्दः।
सत्यं सख सुख सुख
सुख अकारान्तः पुल्लिङ्गशब्दः। अजन्तशब्दः भगिनि। भूमि इकारान्त स्त्रीलिङ्गशब्दः।
सत्यं।
हेतु उकारान्त इट् इस् पुल्लिङ्गशब्दः। सखी दीर्घ इकारान्त स्त्रीलिङ्ग अजन्तशब्दः।
बहु समीचीनं। अस्तु इदानीं धन्यवादः भगिनि। धन्यवादः। द्वादशपाठं पठामः वा? पेज् नम्बर् 35 गीतासोपानं पुस्तके प्रथमभागे द्वादश अध्यायः अस्ति, पेज् नम्बर् 35। अस्तु कः पठति? ऊर्मिला भगिनी।
अहं भगिनि
आरम्भं करोति वा?
आम्। द्वादश पाठः। मा ते सङ्गोस्तु।
सङ्गोस्तु, अत्र आरम्भं करोतु पाठः।
ओके, मा ते सङ्गः अस्तु। एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च। मञ्जूषायाम् आवश्यकं मास्तु, पर्याप्तं, धन्यवादः, स्वागतम्।
एतत् सर्वं वयं पूर्वमेव पठितवन्तः वा?
आम्।
तस्य अर्थः किम् इति जानाति वा?
आम्।
बहु समीचीनं, सत्यं समीचीनम्। अस्तु इदानीं तस्मिन् विषये किञ्चित् किमपि नूतनविषयः अत्र नास्ति किल? आवश्यकं मास्तु, पर्याप्तं, धन्यवादः, स्वागतं, सर्वं वयं पूर्वमेव पठितवन्तः, परन्तु नूतनविषयं किमपि अस्ति वा इति किञ्चित् तस्मिन् विषये चर्चां कुर्मः। अस्तु, अत्र आवश्यकम् इति शब्दः, आवश्यकम् इति शब्दः त्रिषु लिङ्गेषु भवति। अस्तु, आवश्यकं नपुंसकलिङ्गशब्दः, आवश्यकः पुल्लिङ्गशब्दः, आवश्यकी स्त्रीलिङ्गशब्दः। अवगच्छति वा?
आम् आम्।
त्रिषु लिङ्गेषु भवति। उदाहरणार्थं गृहे पुस्तकम् आवश्यकं, पुस्तकं नपुंसकलिङ्गशब्दः किल, अतः आवश्यकमपि नपुंसकलिङ्गशब्दः भवति। शान्तिः आवश्यकी इति भवति। शान्तिः इति शब्दः स्त्रीलिङ्गशब्दः, इकारान्त स्त्रीलिङ्गशब्दः, अतः तस्य योजनेन का शब्दः कथं भवति आवश्यकम् इति शब्दः कथं भवति आवश्यकी इति भवति. अस्तु, अनन्तरं पुल्लिङ्गशब्दः इत्युक्ते मूषकः आवश्यकः. मूषकः पुल्लिङ्गशब्दः अस्ति, आवश्यकः अपि पुल्लिङ्गशब्दः भवति. मूषकः आवश्यकः, अवगच्छति वा? तादृशं भवति. तस्मिन् विषये किञ्चित् अभ्यासं कुर्मः. अहं वाक्यम् आरम्भं करोमि, भवती उत्तम आवश्यकरूपं योजयतु.
पुनः
अहं वाक्यम् आरम्भं करोमि, अहं वाक्यम् आरम्भं करोमि, भवती पूरयतु. आवश्यक इति शब्दस्य उचितरूपं योजयित्वा पूरयतु भवती.
अस्तु
अस्तु. गृहे बालकाः डाश्
गृहे बालकाः आवश्यकाः
सत्यं तावदेव. गृहे बालकाः आवश्यकाः. किमर्थम् आवश्यकाः भवति?
बालकः प्रथम पुल्लिङ्गे अकारान् पुल्लिङ्गे प्रथमा एकवचन अस्ति, बालकाः बहुवचनम् अस्ति, तदर्थम् आवश्यकस्य आवश्यक पुल्लिङ्ग प्रथमपुरुष बहुवचनं.
सत्यं सत्यं. कथं चिन्तयामः, कथम् अवगच्छामः चेत् आवश्यकः इति शब्दः त्रिषु लिङ्गेषु अस्ति किल. आवश्यकः इति पुल्लिङ्गशब्दः अस्ति चेत् तस्य विभक्तिः कथं वदति भवति?
आवश्यकः आवश्यक प्रथम एकवचन.
आवश्यकः इति शब्दस्य विभक्तिः अपि वयं ज्ञातव्यम् अस्ति.
आम्, विशेषसम्बन्धः अस्ति अत्र. बालकः पुल्लिङ्गे अस्ति, तदर्थं बालकः
आवश्यकशब्दः अपि विशेषणं भवति. तादृश विशेषं कथमस्ति तादृशमेव विशेषणमपि, लिङ्गं वचनं विभक्तिः अपि तादृशमेव भवति. अस्तु, तादृशमेव आवश्यकी इति शब्दः अस्ति चेत् कथं भवति चेत् नदी शब्दवत् भवति. नदीशब्दः कथमस्ति तादृशमेव आवश्यकी शब्दस्य विभक्तिः भवति. अस्तु, आवश्यकम् इति शब्दः अस्ति चेत् जलम् अथवा वनम् इति शब्दः कथमस्ति तादृशं भवति. अस्तु, अतः गृहे बालकाः इति अहं वदामि चेत् आवश्यकाः इति उत्तम उत्तरं समीचीनमस्ति. उत्तरं समीचीनमस्ति. अस्तु, अग्रे अन्य वाक्यमस्ति. देशे नद्यः डाश्
देशे नद्यः नदी नद्यो नद्य आवश्यक आवश्यक आवश्य आवश्यकी सो नद्य आवश्यक्यः नद्यः
नद्यः इति बहुवचने अस्ति किल, अतः आवश्यकः आवश्यक्यः भवति. अवगच्छति वा?
आम् आम्, सम्यक् अवगच्छति.
अनन्तरं देशे नदी डाश्
देशे नदी आवश्यकी.
सत्यं, सुन्दरं. स्पष्टमस्ति वा?
नास्ति.
स्पष्टमस्ति वा?
स्पष्टमस्ति.
भवती नास्ति इति उक्तवती किल, अतः अहं चिन्तयामि
अहं चिन्तयामि प्रश्नमस्ति तदर्थम्.
अस्तु अस्तु, प्रश्नः अस्ति वा?
नास्ति. स्पष्टम्
अस्ति वा?
आम्.
अस्तु, सुन्दरं सुन्दरं, धन्यवादः भगिनि, धन्यवादः. आम्, अग्रे अन्य कोऽपि, इदानीम् ऊर्मिला भगिनी एव उक्तवती किल.
आम् आम्
आम् आम्, धन्यवादः. चम्पा भगिनि?
आं भगिनि.
अनन्तरं नगरं
नगरं
डाश्
नगरम् आवश्यक्यः नगरम् आवश्यक्यं
चिन्तयित्वा वदतु नगरं
नगरं नपुसकलिङ्ग् आवश्यक्यं नपुसकलिङ्ग्
सत्यं सुन्दरं सूची
सूची आवश्यक आवश्यकी आवश्यक्य आवश्यकी आवश्यकी
अस्तु आवश्यकमिति शब्दः अस्ति किल त्रिषु लिङ्गेषु कथं भवति भवती एकवारं वदतु केवलं प्रथमैकवचनमेव वदतु पुल्लिङ्गशब्दः अस्ति चेत्
नदीवत् आवश्यकी
पुल्लिङ्गशब्दः अस्ति चेत्
आवश्यक्यः आवश्यकी आवश्यक्यौ आवश्यक्यः
अहं विभक्तिः आवश्यकं नास्ति केवलं भवती आवश्यकं नपुंसकलिङ्गशब्दः आवश्यकी स्त्रीलिङ्गशब्दः आवश्यकः पुल्लिङ्गशब्दः स्पष्टमस्ति वा
स्पष्टं स्पष्टं भगिनि
इदानीं सूची इति अहम् उक्तवती
सूची आवश्यकी
तावदेव
मूषकाः आवश्यक्याः
सुन्दरं पुस्तिका
आवश्यक्या पुस्तिका आवश्यक्या अकारान्त स्त्रीलिङ्ग्
अस्तु अतः चिन्तयित्वा वदतु
पुष्टिका भगिनी राइट और पुष्टिका
अत्र किञ्चित् भ्रमः अस्ति अहं किमर्थम् इति अवगच्छामि किञ्चित् विवरणं करोमि अत्र विशेषणरूपं सुन्दर इति शब्दं स्वीकुर्मः सर्वेषां कृते अहं वदामि सुन्दरः पुल्लिङ्गशब्दः सुन्दरी स्त्रीलिङ्गशब्दः सुन्दरं नपुंसकलिङ्गशब्दः अवगच्छति वा सुन्दरः सुन्दरी सुन्दरं तादृशमस्ति आवश्यकः आवश्यकी आवश्यकम्
आवश्यकम्
अवगच्छति वा
अवगच्छति भगिनि अवगच्छति
अतः अत्र सुन्दरता इति वदति चेत् सुन्दरशब्दस्य भावः वदति अतः अत्र सुन्दरी एव स्त्रीलिङ्गशब्दः अस्ति सुन्दरः पुल्लिङ्गशब्दः अस्ति सुन्दरं नपुंसकलिङ्गशब्दः अस्ति अत्र तादृशमेव स्त्रीलिङ्गशब्दः आवश्यकं शब्दस्य स्त्रीलिङ्गशब्दः कथं भवति चेत् आवश्यकी इति भवति आवश्यका इति न
ओ आवश्यकी ओके
अस्तु
अवगतं भगिनि
पुस्तिका पुस्तिका आवश्यकी इति एव वक्तव्यम् आवश्यकी स्त्रीलिङ्गरूपमस्ति आवश्यकी आवश्यका इति नास्ति पदं नास्ति अवगच्छति वा
अवगच्छति भगिनि भगिनि पुस्तिका अर्थं किम्
पुस्तिका पुस्तकं समानमेव अर्थः समानमेव पुस्तकम् इत्युक्ते नपुंसकलिङ्गशब्दः पुस्तिका इत्युक्ते स्त्रीलिङ्गशब्दः केवलम् अर्थः समानमेव
ओके धन्यवादः भगिनि
स्पष्टमस्ति वा
स्पष्टं भगिनि स्पष्टम्
आवश्यक इति शब्दस्य स्त्रीलिङ्गरूपं कथं भवति
आवश्यकी
नदी शब्दवत् भवति नदी
नदीवत्
तादृशं स्मरतु न विस्मरति
आम् आं भगिनि
स्पष्टमस्ति वा धन्यवादः भगिनि
धन्यवादः
भगिनि धन्यवादः अखिलेन माधवी भगिनि
आं भगिनि
वस्त्रं
वस्त्रम् आवश्यकम्
आसनम्
आसनम् आवश्यकम्
द्रोणी
आवश्यकी
कुक्कुरः
कुक्कुरः आवश्यकः
गोशाला
गोशाला आवश्यकी
स्पष्टमस्ति वा
आं भगिनि स्पष्टमस्ति
सुन्दरं सुन्दरं धन्यवादः भगिनि
धन्यवादः भगिनि
अन्य के मधु भगिनि भवती भागं कृतवती वा
भगिनि
अन्य कोऽपि भागं न कृतवन्तः वा एकवारम्
अहं न कृतवती
अस्तु 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 आगच्छामि मधु भगिनि वदतु इदानीं
आं भगिनि ऐ स्टार्ट् भगिनि
आम् आम् एकनिमिषः एकनिमिषः अहं पृच्छामि भवती वदतु
आं भगिनि
कूप्यः
कूप्यः आवश्यक्याः आवश्यक्यः
सुन्दरं कूप्यः आवश्यकः कूपी
आवश्यकी
सुन्दरं सुन्दरं भवनानि
आवश्यकानि
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 भवनं
आवश्यकं
सुन्दरमस्ति द्वौ स्यूतौ
द्वौ स्यूतौ आवश्यकौ
तादृशं भवति द्वौ स्यूतौ आवश्यकौ सुन्दरमस्ति द्वौ पुल्लिङ्गशब्दे अस्ति द्वे स्त्रीलिङ्गे द्वे अपि नपुंसकलिङ्गे समीचीनं धन्यवादः भगिनि
धन्यवादः
अनन्तरं सुधा भगिनि अनेके चमसाः
अनेके चमसाः आवश्यकाः
बह्व्यः चूरिकाः
प्रथमशब्दः कः भगिनि
बह्व्यः चूरिकाः
बह्व्यः चूरिकाः आवश्यक्यः
पुनः आवश्यक्यः समीचीनं कथं भवति पुनः एकवारं विवरणं वदति वा
आं भगिनि अत्र बह्व्यः चूरिकाः द्वयोः चूरिका इति स्त्रीलिङ्गम् अस्ति बह्व्यः चूरिकाः इति आकारान्त चूरिका इति आकारान्त स्त्रीलिङ्गपदमस्ति बह्व्यः चूरिकाः द्वयोः मध्ये विशेषणविशेष्यभावम् अस्ति अतः आवश्यक्यः इत्यपि विशेषणं भवति अतः तस्य बहुवचनरूपं भवति
नदीशब्दस्य नदीशब्दस्य बहुवचनं नद्यः तदेव अत्र आवश्यक्यः इति अत्र भवति समीचीनं सुन्दरम् एतत् पर्यन्तं स्पष्टमस्ति वा सर्वम् आवश्यक इति शब्दस्य विषये वयं किञ्चित् अधिकं ज्ञातवन्तः किल सर्वे अवगतवन्तः वा
आं भगिनि
प्रश्नः अस्ति वा
नास्ति भगिनि
नास्ति किल अस्तु अग्रे पठामः कथायाः विषये अग्रे पठामः एकनिमिषम् अस्तु पद्मिनी भगिनी भवती आरम्भं करोति वा कथा
आं भगिनि एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च आचार्यः नमो नमः अद्य गीतापठनम् आवश्यकं किम्
एकनिमिषः अत्र अन्य कोऽपि भागं मूलं शक्नोति चेत् समीचीनं भवति क्लीवन् माधवी भगिनी
आं भगिनि
पद्मिनी भगिनी आचार्यः माधवी भगिनी अशोकः भवन्तः एव मिलित्वा सम्भाषणं भगिनी भवती अपि अस्तु भवती अनिलः इति भवति वा
अनिलः ओके मेडम्
अनिलः अस्तु आचार्यः पद्मिनी भगिनी, अशोकः माधवी भगिनी, अनिलः राधिका भगिनी. अस्तु अस्तु, आरम्भं करोतु पुनः एकवारं पद्मिनी भगिनी.
नमो नमः. अद्य गीतापठनम् आवश्यकं किम्?
आम् आवश्यकं, निश्चयेन आवश्यकम्. आचार्य, गीतापठनार्थं किं किम् आवश्यकम्?
गीतापुस्तकम् आवश्यकम्.
लिपिज्ञानम् आवश्यकं किम्?
आम् लिपिज्ञानम् आवश्यकम्.
कृष्णफलकम् आवश्यकं किम्?
कृष्णफलकं मास्तु.
अस्तु, प्रकाशः, वीणाबेन भगिनी.
आं भगिनि, मम उच्चारणदोषः अस्ति, भवतः साहाय्यम् आवश्यकम् आचार्य.
भयं मास्तु, अहं साहाय्यं करोमि.
श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम्?
मास्तु, प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. भवतः गीतापुस्तकम् आवश्यकं किम्?
मम मास्तु, गोविन्दस्य आवश्यकं. मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आनयामि किम्?
मास्तु, मूलमात्रं पर्याप्तम्.
अस्तु आचार्य, धन्यवादः.
स्वागतम्.
समीचीनम्. अत्र परिशीलयामः. प्रथमवाक्ये आचार्यः, नमो नमः, अद्य गीतापठनम् आवश्यकं किम्? आवश्यकम् इति शब्दस्य पूर्वं किं पदमस्ति किल, तस्य लिङ्गं किम्? नपुंसकलिङ्गशब्दः गीतापठनम्, अतः आवश्यकम् अपि नपुंसकलिङ्गशब्दः अस्ति. अनन्तरं अशोकः, आम् आवश्यकम् इति एव अस्ति, निश्चयेन आवश्यकम्. निश्चयम् इति शब्दः अपि नपुंसकलिङ्गशब्दः अस्ति, अत्र तादृशं भवति. अनन्तरं तृतीयवाक्यमस्ति आचार्यः, गीतापुस्तकम् आवश्यकं, पुस्तकमपि नपुंसकलिङ्गशब्दः, अतः आवश्यकमपि नपुंसकलिङ्गशब्दः. तादृशं पश्यामः, कृष्णपालकं नपुंसकलिङ्गशब्दः, आवश्यकमपि नपुंसकलिङ्गशब्दः. तादृशं दृष्ट्वा आवश्यकशब्दः कुत्र कुत्र तस्य परिणामं भवति चेत् तस्य पूर्वम् अथवा तस्य अधः तस्य अनन्तरं विशेषं कथम् अस्ति इति द्रष्टव्यं. पुल्लिङ्गशब्दः वा स्त्रीलिङ्गशब्दः वा नपुंसकलिङ्गशब्दः इति दृष्ट्वा तस्य लिङ्गमपि परिवर्तनं करणीयम्. लिङ्गं, वचनं, विभक्तिः सर्वं परिवर्तनं करणीयम्. स्पष्टमस्ति वा? एषा कथा सुलभः अस्ति वा, अवगमनं सुलभः अस्ति वा, अथवा किञ्चित् विवरणम् आवश्यकम् अस्ति वा?
सुलभः अस्ति,
सुलभः अस्ति किल. अत्र मूलविषयः आवश्यकं, मास्तु, पर्याप्तं, धन्यवादः, स्वागतम्, एतत् सर्वं अव्ययं रूपं भवति, अव्ययमेव भवति. परन्तु आवश्यकम् इति शब्दं त्रिषु लिङ्गेषु अस्ति, तदेव किञ्चित् भिन्नः अस्ति, अतः तस्मिन् विषये एव अधिकं वयं पठितवन्तः. तस्य अधिकं नास्ति, केवलं कथा एव सुलभः अस्ति इति अहं चिन्तयामि. विवरणम् आवश्यकमस्ति इति पुनः पठित्वा गच्छामः, पुनः पठित्वा गच्छामः वा?
एकवारं सुलभः
अस्ति, सुलभः अस्ति किल. अस्तु अस्तु, अग्रे प्रगति भगिनी, अग्रे पठति वा अभ्यासः?
आं भगिनि. श्रीकृष्णस्य मतानुगुणं किम् आवश्यकं, किं मास्तु इति अत्र सूचितम् अस्ति. एतेषां सहायेन पृथक् वाक्यानि वदत.
एकनिमिषः, अत्र नूतनः अपि अस्ति, इन्द्रा भगिनी अपि नूतनः अस्ति. एकवारं भगिनी, प्रगति भगिनी, भवती एव वदतु आवश्यकम् इति इत्युक्ते किं भगिनि?
you're asking me or
I'm asking Prakriti bhagini. Prakriti bhagini.
Okay.
Hmm. Avashyakam iti padasya artah kim?
Avashyakam is needed.
Naam. Need more iti artah. Mastu?
Mastu not needed. Mast.
Anya. Anya rupena.
Not okay.
Yeah.
Astu.
Don't need.
Okay.
Not needed. Iti artha eva. Don't need iti artha. Mastu. Paryaptam.
Sufficient.
Na enough. Iti artha.
Enough.
Dhanyavadah.
Thank you.
Nam. Swagata.
Welcome.
Tavadeva. Punaha. Kevalam. परिचयार्थमहम् एकवारं वदति चेत् सुलभः भवति. अस्तु, अग्रे अभ्यासः पठतु. किं करणीयमिति पृथक् वाक्यानि वदत इति अस्ति. श्रीकृष्णस्य मतानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितमस्ति. एतेषां साहाय्येन पृथक् वाक्यानि वदत इति अस्ति. के के पदानि सन्ति, कानि कानि पदानि सन्ति, वदति केवलं पदानि एव वदतु, पठतु कृपया.
क्लेब्यं, शोकः, चिन्ता, फले अधिकारः, विमूढभावः, यथा युद्धं, सङ्गं त्यक्त्वा, कर्माचरणम्, इन्द्रियनियमनं, योगसेवनं, भगवद्भजनम्.
अस्तु, एतानि पदानि सन्ति. किं करणीयम्? उदाहरणार्थं किम् अस्ति अत्र?
उदाहरणार्थं क्लेब्यं मास्तु.
क्लेब्यं मास्तु. अनन्तरं
युद्धम् आवश्यकम्.
युद्धम् आवश्यकम्. अस्तु, अग्रे अभ्यासं कथमस्ति इति पश्यामः. किम् आवश्यकं, किं मास्तु इति वक्तव्यं वयम्. अस्तु, ओ चिन्ता तावदेव अस्ति, तावदेव अस्ति. अनन्तरं नूतन अभ्यासः, नूतन विषयः अस्ति. तादृशं क्लैब्यं मास्तु, युद्धम् आवश्यकं, शोकः
मास्तु,
शोकः मास्तु, चिन्ता,
चिन्ता मास्तु,
फले अधिकारः,
फले अधिकारः मास्तु.
फले अधिकारः अस्माकं
कर्म अधिकारः अस्ति, फल अधिकारः नास्ति.
कर्मे एव अधिकारः अस्ति, फले अधिकारः नास्ति. विमूढभावः,
विमूढभावः
इत्युक्ते
मास्तु.
एतद् किं कुर्मः चेत् एतस्मिन् विषये वदतु कृपया.
विमूढ मीन्स् इग्नोरेण्ट्. विमूढभावः मास्तु, मीन्स् डोण्ट् बि इग्नोरेण्ट्.
इग्नोरेण्ट्, रैट् रैट्. व्यथा इत्युक्ते किम् इति शब्दकोशे पश्यन्ति वा कोऽपि?
वरि मेडम्, वरि
वरि. अस्तु, व्यथा, व्यथा. अस्तु, व्यथा आवश्यकं वा मास्तु वा?
मास्तु.
विमूढभावः फूलिश्नेस्. अस्तु, विमूढभावः मास्तु. व्यथा मीन् नाम वरि. आवश्यकं वा मास्तु वा? मास्तु. युद्धम् आवश्यकम् इति अत्र एव लिखितम्.
आवश्यकम्.
सङ्गं त्यक्त्वा कर्माचरणम् इति.
सङ्गं त्यक्त्वा कर्माचरणं आवश्यकम्.
सत्यं, सत्यम्. अनन्तरम् इन्द्रियनियमनम्, इन्द्रियनियमनम्,
इन्द्रियनियमनम् आवश्यकम्.
सत्यं. योगसेवनं,
योगसेवनम् आवश्यकम्.
भगवद्भजनम्
भगवद्भजनम् आवश्यकम्
आवश्यकं तावदेव केवलं मास्तु आवश्यकम् इति पदम् उपयोगम् अभ्यासार्थमेव एतत् अभ्यासः अस्ति तावदेव मास्तु अग्रे गच्छामः वा नूतनपाठः अस्ति न शोचति न काङ्क्षति इति नूतनपाठः अस्ति त्रयोदश पाठः अस्ति पेज् नम्बर् 36 मध्ये अस्ति अत्र नूतनविषयः किम् अस्ति इति कोऽपि वदति वा अत्र नूतनविषयः किम् अस्ति पश्यत उच्चैः पठत अवगच्छत च इति अस्ति अत्र रथः गच्छति रथौ गच्छतः रथाः गच्छन्ति इति अस्ति अत्र नूतनविषयः किं किम् अस्ति अत्र दृष्ट्वा वदति वा कोऽपि
आं भगिनि
वदतु भगिनि
आं भगिनि लट्लकारस्य प्रथमपुरुष एकवचनरूपाणि सन्ति
अस्तु समीचीनम् अत्र किम् अन्य कोऽपि वदतु वक्तुम् इच्छति वा अन्य कोऽपि पद्मिनी भगिनी वक्तुम् इच्छति वा
वर्तमानकालस्य
अत्र किम् अस्ति चेत् एतत् पर्यन्तं वर्षद्वयम् आसीत् यदा वयं संस्कृतं पठनस्य आरम्भम् इदानीं वर्षद्वयम् आसीत् अत्र किं पठितवन्तः चेत् सर्वदा नामपदस्य विषये एव वयं पठितवन्तः नामपदस्य विषये नाम रामः लता वनम् तस्मिन् विभक्तिः तावदेव वयम् अभ्यासं कृतवन्तः सर्वदा नामपदस्य विषये एव वयं चिन्तनम् अपि तादृशमेव आसीत् विभक्तिवळरी पुस्तके किं पठितवन्तः वयम् एकं पदं स्वीकुर्मः चेत् तत्र नामपदं वा क्रियापदं वा इति चिन्तयामः किल वयं सर्वदा रामः इति पदं रामः अस्ति इति एकं वाक्यं स्वीकुर्मः रामः कीदृशपदम् अस्ति कीदृशपदम् सत्यं रामः नामपदमस्ति नामपदं भवति अस्ति इति पदं क्रियापदम् अस्ति किल अत्र पदद्वयम् अस्ति नामपदं क्रियापदम् इति विषये परन्तु अद्य पर्यन्तं वयं सर्वदा विभक्तिवळर्यां पुस्तके अपि सर्वदा वयं नामपदस्य विषये एव अभ्यासं कृतवन्तः प्रथमाविभक्ति द्वितीयाविभक्ति तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी सम्बोधनं पर्यन्तं सर्वदा वयं विभक्तिविषये एव अभ्यासं कृतवन्तः परन्तु अत्र नूतनविषयः किम् इत्युक्ते वयं क्रियापदस्य विषये पठनस्य आरम्भं भवति अत्रैव आरम्भं भविष्यति अस्तु अत्र कालः अस्ति काल क्रियापदस्य विषये वयं किं ज्ञातव्यम् इत्युक्ते कालः अस्ति वर्तमानकाल आङ्ग्लभाषायां वयं वदामः किल पास्ट् टेन्स् प्रसेण्ट् टेन्स् फ्यूचर् टेन्स् इति वदामः किल तत्र ते सर्वे वर्ब् इति विषये एव वयं वदामः किल तादृशमेव अत्र अपि यदा क्रियापदमिति वयं वदामः चेत् भूतकालं भविष्यत्कालं वर्तमानकालम् इति अस्ति वर्तमानकालः भूतकालं वर्तमानकालः भविष्यत्कालः इति भविष्यति तादृशम् अत्र त्रिषु कालस्य विषये अपि अत्र वयं पठनीयम् अस्ति नूतनविषयः अस्ति यदा वयं क्रियापदविषये पठामः चेत् कालः अपि अस्ति पास्ट् टेन्स् वा प्रेसेण्ट् टेन्स् वा फ्यूचर् टेन्स् वा तस्मिन् विषये इदानीं पठनस्य आरम्भं भवति अस्तु प्रथमं कस्मिन् विषये वयं पठामः चेत् वर्तमानकालस्य विषये एव वयं पठामः वर्तमानकालः इत्युक्ते प्रेसेण्ट् टेन्स् अस्तु वर्तमानकालः इत्युक्ते प्रेसेण्ट् टेन्स् तस्मिन् विषये एव इदानीं पठनस्य आरम्भं भविष्यति अस्तु व्याकरणरीत्या वर्तमानकालस्य टेक्निकल् टर्म् इति चिन्तयतु. इदानीम् आरम्भकाले तादृशं चिन्तयामः, टेक्निकल् टर्म् इति चिन्तयतु. तस्य नाम अस्ति लट् लकारः, लट् लट् लकारः. अस्तु, तादृशं चिन्तयतु. वर्तमानकालः इत्युक्ते प्रसेण्ट् टेन्स्, प्रसेण्ट् टेन्स् इत्युक्ते लट् लकारः इति वदामः. गच्छता कालेन लट् लकारः एव वयं वक्तव्यं. लट् लकाररूपम् इत्युक्ते प्रसेण्ट् टेन्स् इति वक्तव्यम्, अवगमनं अपि भविष्यति. अस्तु, इदानीं वर्तमानकालः इति विषये पठामः चेत् तस्य टेक्निकल् टर्म् किं भविष्यति? वर्तमानकालः अथवा लट् लकाररूपम्. अस्तु, इदानीं गच्छति इति क्रियापदं स्वीकुर्मः. अस्तु, गच्छति वर्तमानकालः भविष्यति, वर्तमानकालः अस्ति, वर्तमानकालरूपम् अस्ति. तस्य द्विवचनं कथं भवति? गच्छतः. अस्तु, द्विवचनं गच्छतः, बहुवचनं गच्छन्ति. अस्तु, एतत् पर्यन्तं रामः इति शब्दः अस्ति चेत् रामः इति शब्दः एकवचनमस्ति, रामौ द्विवचनमस्ति, रामाः इति अस्ति चेत् बहुवचने अस्ति, किल? तादृशं यदा क्रियापदं स्वीकुर्मः चेत् तस्य कालः ज्ञातव्यम्, अनन्तरम् एकवचनं वा द्विवचनं वा बहुवचनं वा अपि ज्ञातव्यमस्ति. अस्तु, इदानीं गच्छति इति अहं वदामि चेत् तस्य कालः किं? पद्मिनी भगिनी, भवती वदति वा गच्छति इति वदामि चेत् तस्य कालः किं?
लट् लकारः.
कालः कः? कालः कः? क्षम्यतां, लट् लकारः. लट् लकारः इत्युक्ते
वर्तमानकालः.
वर्तमानकालः, समीचीनं. वर्तमानकालः अथवा लट्लकारः. अस्तु, गच्छति इति एकवचनमस्ति, तस्य द्विवचनं कथम् अस्ति?
गच्छतः.
अनन्तरं बहुवचनं?
गच्छन्ति.
गच्छन्ति. अत्र सुलभः भविष्यति चेत् किं स्मरणीयं, कथं स्मरणीयम् इत्युक्ते पदस्य अन्ते किम् अस्ति? प्रथमं ति अस्ति, अनन्तरं तः अस्ति, अनन्तरम् इति अस्ति, किल? तदेव स्मर्तव्यम्. अस्तु, इदानीं किञ्चित् अभ्यासं कुर्मः. अस्तु, उपविशति, तस्य द्विवचनं बहुवचनं भवती वदतु. अस्तु, उपविशति,
उपविशन्ति,
उपविशन्ति, तः इन्ति इति योजनीयम्. अस्तु, तिष्ठति,
तिष्ठति, तिष्ठतः, तिष्ठन्ति.
वर्णयति,
वर्णयति, वर्णयतः, वर्णयन्ति.
अस्तु, इदानीम् अहं वदामि चेत् पश्यतः इति अहं वदामि, तस्य वचनं किम्?
पश्यतः द्विवचनं.
पश्यन्ति इति अस्ति चेत्
बहुवचनं.
पश्यति इति अस्ति चेत्
एकवचनं.
एकवचनं तद् पश्यन्ति, वर्णयन्ति, खादन्ति, उपविशन्ति, तद्विषये, तस्मिन् विषये वयं पठितवन्तः किल, अतः सुलभः अस्ति. परन्तु अत्र नूतनविषयः किम् अस्ति? द्विवचनं, द्विवचनमेव नूतनम् अस्ति अत्र. आम् आम्, तस्मिन् विषये वयं सर्वदा न पठितवन्तः द्विवचनविषये. अत्र द्विवचने अन्ते कथं भवति? तः 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 इति भवति. तः इति अस्ति चेत् अत्र द्विवचनम् इति अवगमन इति अवगच्छामः. अस्तु, धन्यवादः भगिनि.
धन्यवादः.
धन्यवादः. इदानीं जानकी भगिनी.
आं भगिनि.
भवती आचार्यः इति अस्ति किल, तस्य आरम्भं करोतु तत्र.
आचार्यः उपदिशति. आचार्यौ उपदिशतः. आचार्याः उपदिशन्ति.
अस्तु, अत्र कुत्र सावधानम् आवश्यकं? पुनः रथः इति तत्रैव स्वीकुर्मः. भगिनी, भवती रथः इति आरम्भतः पठतु.
रथः गच्छति, रथौ गच्छतः, रथाः गच्छन्ति.
अत्र गच्छति, गच्छतः, गच्छन्ति, सुलभः अस्ति किल भगिनि?
आं भगिनि.
ति तः इति भवति. आम्, गच्छति, गच्छतः, गच्छति, सुलभः अस्ति. परन्तु अत्र कुत्र सावधानम् इदानीं रथः इति शब्दं स्वीकुर्मः. रथ नाम नामपदमस्ति किल?
आं भगिनि.
नामपदं रथः इति शब्दस्य विभक्ति प्रथमविभक्ति वदतु.
रथः रथौ रथाः.
रथः रथौ रथाः. अत्र नामपदं क्रियापदं द्वयमपि योजयित्वा वाक्यरूपेण वक्तव्यम्. रथः गच्छति सुलभः अस्ति, अस्तु. रथाः गच्छन्ति अपि सुलभः अस्ति, परन्तु अत्र द्विवचनं वयं नूतनमस्ति किल. रथौ गच्छतः इति चिन्तयित्वा वक्तव्यं.
रथौ गच्छतः.
मिलित्वा पुनः वदतु. रथः
रथः गच्छति, रथौ गच्छतः, रथाः गच्छन्ति.
इदानीं रथः इति स्थाने रामः इति पदं स्थापयित्वा वदतु.
रामः गच्छति, रामो गच्छतः, रामाः गच्छन्ति.
समीचीनम्. इदानीं लता इति सीता इति स्वीकरोतु. सीता इति स्थापयित्वा वदतु. गच्छति एव क्रियापदम्.
सीता गच्छति, ते गच्छतः, सीता गच्छन्ति.
अत्र द्विवचने सावधानम् आवश्यकम् अस्ति. सीते भवति. आम्. रमा इति स्वीकृत्य वदतु.
रमा गच्छति, रमे गच्छतः, रमाः गच्छन्ति.
समीचीनं. स्पष्टमस्ति किल भगिनि?
आं भगिनि.
समीचीनं. धन्यवादः भगिनि. धन्यवादः.
धन्यवादः.
अनन्तरं वीणाबेन् भगिनि.
आं भगिनि.
आचार्यः
आचार्यः उपदिशति, आचार्यो उपदिशतः, आचार्याः उपदिशन्ति.
आचार्याः उपदिशन्ति. अस्तु. आम्. अग्रे पठतु.
मातुलः तिष्ठति, मातुलौ तिष्ठतः, मातुलाः तिष्ठन्ति.
समीचीनम्. अग्रे.
सचिवः वर्णयति, सचिवौ वर्णयतः, सचिवाः वर्णयन्ति.
समीचीनं. समीचीनम्. अस्तु. धन्यवादः भगिनि. अग्रे माधवी किरण. माधवी भगिनि.
आं भगिनि. व्यूहः अस्ति, व्यूहौ स्तः, व्यूहाः सन्ति.
अत्र सर्वे सावधानं कुत्र आवश्यकम् अस्ति? स्तः इति द्विवचनम् अस्ति भवति. अस्ति, स्तः, सन्ति. सर्वदा वयम् अस्ति सन्ति शब्दम् उपयोगं कृतवन्तः एतत् पर्यन्तं, परन्तु अत्र नूतनशब्दः कुत्र किम् अस्ति? स्तः. व्यूहः अस्ति, व्यूहौ स्तः, व्यूहाः सन्ति. इदानीं रामशब्दं स्वीकृत्य स्थापयित्वा वदतु कृपया.
रामः अस्ति, रामौ स्तः, रामाः सन्ति.
अनन्तरं वनम्.
वनम् अस्ति, वने स्तः, वनानि सन्ति.
अत्र कुत्र सावधानम् आवश्यकम् आसीत्?
द्विवचनं स्तः
न, द्विवचने वने भवति, वने स्तः इति वक्तव्यम्. अनन्तरं बहुवचने वनानि सन्ति इति वक्तव्यं. समीचीनम्. अग्रे पठतु.
सैनिकः पश्यति, सैनिकौ पश्यतः, सैनिकाः पश्यन्ति.
अग्रे.
अग्रे. धीरः मुह्यति, धीरौ मुह्यतः, धीराः मुह्यन्ति.
समीचीनम्. अग्रे.
स्थितप्रज्ञः अभिनन्दति, स्थितप्रज्ञौ अभिनन्दतः, स्थितप्रज्ञाः अभिनन्दन्ति.
अभिनन्दन्ति. समीचीनं. धन्यवादः भगिनि.
धन्यवादः भगिनि.
राधिका भगिनि.
आं भगिनि. आं भगिनि.
भगिनी
वदति, भगिन्यौ वदतः, भगिन्यः वदन्ति.
समीचीनं.
मात्रं सीदति, गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति मुखं शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति
समीचीनं तावदेव यदा वयं नूतनविषयं पठामः चेत् तस्मिन् सन्दर्भे एव वयं सम्यक्तया अवगन्तव्यमस्ति स्मर्तव्यमपि अस्ति किमर्थं चेत् अग्रे गत्वा नूतनलकारः नूतनकालः विषये वयं पठामः चेत् रूपं भिन्नं भवति तस्मिन् समये बहु कठिनः भवति अयो कुत्र कः लकारः किमपि अहं न अवगच्छामि किमपि अहं न अवगच्छामि इति भ्रमः भविष्यति अतः यदा वयं नूतनं विषयं पठामः चेत् तस्मिन् समये कर्तव्यम् अस्ति बहु प्रमुखविषयः अस्ति अत्र अत्र सुलभः एव अस्ति इति अहं चिन्तयामि सर्वे अवगतवन्तः वा कुत्र कुत्र सावधानम् आवश्यकम् इति अहम् उक्तवती सर्वे अवगतवन्तः वा एतत् पर्यन्तम्
आं भगिनि
अस्तु आम् मधु भगिनि
आं भगिनि
वर्तमान इदानीं त्रयोदशपाठे कस्मिन् विषये वयं पठामः
क्रियापदं कर्मपदं वर्तमानकाले लट्लकारः आं भगिनि
एकनिमिषं पुनः वदतु कर्मपदं विषये अत्र कर्मपदं किमपि नास्ति
कर्मपदं नास्ति भगिनि
क्रियापदं अस्मिन् पाठे प्रमुखविषयः किम् अस्ति भगिनि
कर्तृपदं क्रियापदम् अस्मिन् पाठे कर्तृपदं क्रियापदं प्रमुखविषयः
अत्र एकनिमिषः भगिनि अत्र कर्तृपदम् अस्ति नामपदम् अस्ति परन्तु प्रमुखविषयः विषयः अस्ति परन्तु प्रमुखविषयः इम्पोर्टेण्ट् लेसन् किम् अस्ति इत्युक्ते अत्र कालः वर्तमानकालः विषये वयं पठामः त्रिषु लिङ्गेषु अस्ति त्रिषु लिङ्गेषु अस्ति वर्तमानकालः त्रिषु लिङ्गेषु तस्य रूपं किम् इति एव वयं पठामः पठितवन्तः इदानीम् अस्तु वर्तमानकालः इति अहं वयं वदामः किल तस्य टेक्निकल् टर्म् किम् अस्ति
लट्लकारः
लट्लकारः लट्लकारः इत्युक्ते वर्तमानकालः वर्तमानकालः कः
वर्तमानकालः इत्युक्ते लट्लकारः
सत्यं सत्यं समीचीनं तावदेव अत्र नूतनविषय तस्मिन् विषये नूतनविषयः किम् इत्युक्ते द्विवचनमेव नूतनविषयम् अस्ति प्रथमं किम् अस्ति गच्छति इति पदस्य त्रिषु लिङ्गेषु वदतु भगिनि गच्छति
गच्छति गच्छतः गच्छन्ति
पठति
पठति पठतः पठन्ति
वदति
वदति वदतः वदन्ति
उपविशति
उपविशति उपविशतः उपविशन्ति
समीचीनं समीचीनं स्पष्टमस्ति वा
आं भगिनि स्पष्टम्
अत्र धन्यवादः भगिनि एकनिमिषः अहम् अन्यं पृच्छामि एकनिमिषः मूषकः अस्ति वदतु
मूषकः अस्ति मूषकौ स्तः मूषकाः सन्ति
बहु समीचीनं बहु समीचीनं अत्र द्विवचने सावधानेन वक्तव्यमस्ति अस्तु
आं
समीचीनं धन्यवादः भगिनि धन्यवादः
धन्यवादः
अग्रे चम्पा भगिनी
आं भगिनि
अग्रे पठति वा
आम् आम् अहं नमामि आवां नमावः वयं नमामः
अत्र किं वक्तुमिच्छामि चेत् यदा वयम् एकनिमिषः भगिनि यदा वयं कालः विषये लकारस्य अथवा वर्तमानकालः भविष्यत्कालः तस्मिन् यदा वयं तस्मिन् विषये पठामः लिङ्गमपि अस्ति पुरुषः अपि अस्ति लिङ्गं नास्ति वचनमस्ति पुरुषः अस्ति अस्तु गच्छति गच्छतः गच्छन्ति एकवचनं गच्छति द्विवचनं गच्छतः बहुवचनं गच्छन्ति इति अस्ति परन्तु अन्यनूतनविषयः अस्ति किम् अस्ति चेत् पुरुषः प्रथमपुरुषः प्रथमपुरुषः उत्तमपुरुषः मध्यमपुरुषः इति अस्ति प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः पुरुषः त्रयम् अस्ति सर्वे वदन्तु एकवारं प्रथमपुरुषः
प्रथमपुरुषः
मध्यमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषः आङ्ग्लभाषायां प्रथमपुरुषः इत्युक्ते थर्ड् पर्सन् इति अर्थः रामः सीता किमपि भवति परन्तु मध्यमपुरुषः इत्युक्ते आङ्ग्लभाषायां यु यु इति वदामः किल तादृशं भवति मध्यमपुरुषः उत्तमपुरुषः इत्युक्ते अहम् इति शब्दस्य विषये इदं किमपि वक्तुम् इच्छति चेत् तदेव उत्तमपुरुषः भवति अस्तु इदानीम् अहं नमामि इति अस्ति किल यदा अहं नमामि इति अस्ति चेत् अहं कुत्र भवति उत्तमपुरुषः वा मध्यमपुरुषः वा प्रथमपुरुषः वा
उत्तमपुरुषः
आम् सत्यम् उदाहरणार्थं रथः गच्छति इति अस्ति अत्र रथः इति रथः गच्छति इति गच्छति इति शब्दः प्रथमपुरुषः वा मध्यमपुरुषः वा उत्तमपुरुषः वा
प्रथमपुरुषे अस्ति
सत्यं सत्यम् अत्र यदा वयं विभक्तिविषये पठितवन्तः वयं कस्मिन् विषये वयं प्रथमं पठितवन्तः एकवचनं बहुवचनं एव प्रथमम् अभ्यासं कृतवन्तः किल अनन्तरमेव द्विवचनं भवति किल तादृशम् एव अत्रापि अस्ति सुलभः किम् अस्ति चेत् प्रथमपुरुषः उत्तमपुरुषः अस्तु अनन्तरं मध्यमपुरुषे पुरुषस्य विषये पठामः इदानीमेव पठामः परन्तु किमर्थं प्रथमं प्रथमपुरुषः कृत लिखितवन्तः अत्र अभ्यासार्थमपि प्रथमपुरुषः एव अत्र अस्ति गच्छति गच्छतः गच्छन्ति तत् सर्वं प्रथमपुरुषः भवति अनन्तरं नमामि नमावः नमामः इति अस्ति चेत् अहम् इति अत्र अस्ति किल तत् सर्वम् उत्तमपुरुषः अस्ति तस्य अनन्तरं पश्यामः चेत् त्वं पठसि युवां पठतः यूयं पठत पठसि पठतः पठत इति अस्ति तत् सर्वं मध्यमपुरुषः भवति अस्तु भगिनी भवती एव वदतु पुरुषत्रयम् अस्ति किल तस्य नाम किम्
प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः
समीचीनम् अहं नमामि इति वदामि चेत् तस्य पुरुषः किं
नमामि
गच्छति इति अस्ति चेत्
गच्छति प्रथमपुरुषे अस्ति
पठामि
पठामि मध्यम उत्तमपुरुषे अस्ति
तिष्ठति
तिष्ठति प्रथमपुरुषे अस्ति
वदामि
वदामि उत्तमपुरुषे अस्ति
नयति
नयति प्रथमपुरुषे अस्ति
नयामि
नयामि उत्तमपुरुषे अस्ति
अस्तु इदानीं प्रथमपुरुषः उत्तमपुरुषः समीचीनमस्ति तादृशम् अस्ति उदाहरणार्थं पठसि सि सकारः आगच्छति अन्ते पठसि इति आगच्छति चेत् तत् मध्यमपुरुषः भवति अस्तु किञ्चित् आरम्भ अत्र उत्तमपुरुषस्य विषये पठामः अनन्तरं मध्यमपुरुषे विषये अग्रे पठामः इदानीं भवती एव पठतु भगिनि उत्तमपुरुषस्य विषये अहं नमामि अनन्तरं
नमामि आवां नमावः वयं नमामः
उत्तम उत्तमपुरुषस्य विषये कथमस्ति प्रथमं नमामि मी इति अस्ति अनन्तरं वः इति अस्ति अन्ते, द्विवचने अन्ते वः इति अस्ति, बहुवचने अन्ते मः इति अस्ति. अहं नमामि, नमामि, नमावः, नमामः. गायामि,
गायामि उत्तमपुरुषे अस्ति.
अस्तु, गायामि द्विवचने,
गायावः.
बहुवचने
गायामः.
गणयामि,
गणयामि, गणयावः, गणयामः.
इच्छामि,
इच्छामि, इच्छावः, इच्छामः.
विन्दामि,
कः भगिनि
अत्र अन्ते वदामि इति अस्ति किल, विन्दामि इति
वदामि, वन्दावः, विन्दामः.
एकनिमिषः, अत्र विन्दामि इति मम पुस्तके अस्ति, भवत्याः पुस्तके कथमस्ति?
विन्दामि,
विन्दामि एव अत्रैव अस्ति. आम्, तस्य अर्थः किमिति अहं न जानामि, दृष्ट्वा वदामि. विन्दामि, विन्दावः, विन्दामः. अस्तु, अत्र एकवचने मी मी इति अन्ते अस्ति, अनन्तरं वः वः इति द्विवचने अस्ति, मध्ये बहुवचने मह मह इति आगच्छति. किल, अस्तु, इदानीं योजयित्वा वदतु. अहं नमामि,
अहं विन्दामि,
अस्तु,
आवां विन्दावः, वयं विन्दामः.
सत्यं, सत्यम्. अहम्, आवां, वयं, यदा वयं नामपदं विषये पठितवन्तः, तस्य विभक्ति अपि वयं पठितवन्तः, सर्वनामशब्दः इति वयं वदामः. किल, परन्तु यदा वयं क्रियापदं पठामः चेत् तत्र उत्तमपुरुषः इति वयामः वदामः वयम्. अहम् इति अस्ति चेत् उत्तमपुरुषः, त्वं, युवां, यूयम् इति अस्ति चेत् मध्यमपुरुषः भवति. स्पष्टमस्ति वा?
स्पष्टं भगिनि.
इतोपि अग्रे गत्वा अनेकाः अभ्यासाः वयं कुर्मः, भीतिः मास्तु. अस्तु, भीतिः मास्तु, इदानीमेव परिचयम् अस्ति, यदा परिचयम् अस्ति तद् अवगच्छति वा इति एव अहं पृच्छामि. अस्तु, धन्यवादः भगिनि.
धन्यवादः.
ऊर्मिला भगिनि,
भगिनि.
आम्, ऊर्मिला भगिनि अस्ति वा?
अस्तु, अस्तु. अत्र विन्द अर्थं फैण्ड् आर् गेन्, गेट्
समथिङ्ग्? दृष्ट्वा एव वक्तव्यमस्ति.
अहं अहं दृष्टवती,
शब्दकोशे दृष्टवती वा?
आम्, आम्.
किमस्ति तस्य अर्थः?
विन्द अर्थं फैण्ड्, या गेटिङ्ग् समथिङ्ग्, गेनिङ्ग् समथिङ्ग्, फैण्डिङ्ग्
समथिङ्ग्, प्राप्नोमि इति अर्थः. अस्तु, अस्तु, प्राप्नोमि, प्राप्नुमः, अस्तु, तस्य रूपभेदः अस्ति, परन्तु अत्र तादृश अर्थः, विन्दामि. अस्तु, अवगच्छामि. धन्यवादः राधिका भगिनि, धन्यवादः. अस्तु, भवती पुनः एकवारं पठति वा? अहं गायामि, तस्य तत्र आरभ्य पठतु कृपया.
अस्तु, अहं गायामि, आवां गायावः, वयं गायामः. अहं गणयामि,
अग्रे पठतु.
अहं गणयामि, आवां गणयावः, वयं गणयामः. अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः. अहं विन्दामि, आवां विन्दावः, वयं विन्दामः.
समीचीनम्. अत्र कुत्र सावधानम् आवश्यकम्? द्विवचने सावधानं. गायामः, वयं सर्वदा उपयोगं कुर्मः किल, परन्तु अत्र आवां गायावः, द्विवचने वः वः इति भवति. आवां गायावः, आवां गणयावः, आवां पटावः, आवां विन्दावः, आवाम् इच्छावः इति वः वः इति आगच्छति अन्ते. अस्तु, अत्र अन्य विषयं किम् अस्ति चेत्, अस्तु तावदेव अस्ति. नमामि, नमावः, नमामः रूपं स्मर्तव्यमस्ति. अभ्यासं कुर्मः. यदा प्रथमपुरुषः अस्ति चेत् कथं भवति भगिनि? गच्छति इति अस्ति चेत्
सः नमति, तौ नमतः, ते नमन्ति.
उत्तमपुरुषः अस्ति चेत्
अहं नमामि, आवां नमावः, वयं नमावः.
समीचीनं, नमामः. समीचीनं, समीचीनम्. इदानीम् अग्रे पठतु कृपया.
अग्रे
मध्यमपुरुषस्य विषये वयं पठामः.
त्वं पठसि, युवां पठतः, यूयं पठथ.
अत्र किम् अस्ति, त्वम् इति सर्वनामशब्दः एव, परन्तु तद् मध्यमपुरुषः अस्ति. अस्तु, त्वं, त्वं युवां, यूयम्. अस्तु, एकवचने त्वं, द्विवचने युवां, बहुवचने यूयम् अस्ति. परन्तु अत्र किं, कुत्र न सावधानम् आवश्यकं? क्रियापदस्य विषये सावधानम् आवश्यकम्. पठसि, पठथः, पठथ. अत्र थकारः अस्ति किल, महाप्राणः आवश्यकं. महाप्राणथकारः अस्ति, अत्र सावधानम् आवश्यकं. पठसि, पठथः, पठथ. यदा सि, ठः, ठ इति अस्ति चेत् मध्यमपुरुषः इति वयम् अवगन्तव्यम् अस्ति. अस्तु, अत्र यदा वयं प्रथमपुरुषः पश्यामः चेत् गच्छतः इति अस्ति, तावदेव वयं मध्यमपुरुषस्य विषये वक्तव्यम् इति अस्ति चेत् गच्छतः इति वक्तव्यम्. अत्र तकारः महाप्राणः वा अल्पप्राणः वा इति चिन्तयित्वा वक्तव्यम् अवगमनार्थम्. अग्रे पठतु कृपया. त्वं,
त्वम् अर्हसि, युवाम् अर्हथः, यूयम् अर्हथ. त्वं छात्रः असि, युवां छात्रौ स्तः, यूयं छात्राः स्थ.
अत्र प्रमुखविषयः अस्ति, मध्यमपुरुषे अस्ति इति वयं पठितवन्तः किल, अस्ति, स्तः, सन्ति इति अस्ति किल, तादृशम् अस्ति. अत्रापि मध्यमपुरुषः अस्ति चेत् कथं भवति? असि, स्तः, स्थ इति भवति. प्रमुखविषयः सर्वे स्मृत्वा आगच्छन्तु. अत्र हैलैट् अथवा अण्डर्लैन् किमपि कृत्वा करोतु स्मरणार्थं, स्मारणार्थम्. अस्तु, अग्रे.
त्वम् उपविशसि, युवाम् उपविशथः, यूयम् उपविशथ. त्वं कथयसि, युवां कथयथः, यूयं कथयथ.
उदाहरणार्थं युवां कथयथ इति उक्तवती चेत् दोषः भवति. युवां कथयथः इति एव वक्तव्यम्. समीचीनरूपम् अस्ति चेत् विसर्गः अपि आवश्यकम् अस्ति द्विवचने. विसर्गः नास्ति चेत् बहुवचनं भवति, परन्तु नामपदं दोषः अस्ति. अतः रूपं समीचीनं सम्यक्तया वक्तव्यं, लेखितव्यमपि अस्ति, उच्चारणमपि समीचीनं भविष्यति. अस्तु, अत्र एतत् पाठः एव प्रमुखविषयः अस्ति. लकारः, लट्लकारः इत्युक्ते प्रेसेण्ट् टेन्स्, वर्तमानकालः. वर्तमानकालस्य विषये प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः अस्ति. तत्र रूपभेदः अस्ति. रूपभेदः कथं भवति इति वयं पठितवन्तः. अस्तु, अस्तु, तस्मिन् विषये अभ्यासः अस्ति. गृहपाठरूपेण कृत्वा आगच्छन्ति वा सर्वे? प्रयत्नं कृत्वा आगच्छन्ति वा? अग्रिमवासरे पुनः पुनः अभ्यासं कृत्वा एव अग्रे गच्छामः.
आं भगिनि.
मम इदानीं प्रश्नः यद् वयं पठितवन्तः तस्मिन् विषये प्रश्नः अस्ति वा?
न भगिनि,
नास्ति.
अस्तु, समीचीनं, समीचीनं. प्रश्नः अस्ति चेत् अपि समीचीनमेव, बहु समीचीनं भविष्यति, सर्वेषां कृते लाभाय भवति. अतः लज्जा मास्तु, कृपया भयमपि मास्तु, कृपया लज्जा विना पृच्छन्तु, लज्जया विना पृच्छन्तु प्रश्नः. अस्तु, वदतु.
एकः प्रश्नः
वदतु.
प्रथमपुरुषः अस्ति चेत् अस्ति, स्तः, सन्ति भवति.
आम् आम्.
मध्यमपुरुषः अस्ति चेत् असि, स्तः, स्थ भवति.
उत्तमपुरुष अस्मि
अस्मि
स्वः स्मः
स्मः आम् सत्यं सत्यम् आम् तावदेव
अस्वः
अस्मि
अस्मि
अस्मि स्वः
स्मः स्वः स्वः
स्मः
स्मः स्मः आम् वयं स्मः इति वदामः किल स्मः
स्मः
आवां स्वः आम् स्वः वकारः
धन्यवादः भगिनि
आम् अहम् अस्मि इति भवति आम्
धन्यवादः भगिनि
आम् आम् समीचीनम् उत्तमप्रश्नः आम् अस्तु प्रश्नः अस्ति चेत् पृच्छन्तु नास्ति चेत् अग्रिमवासरे मिलामः अग्रिमसप्ताहे मिलामः अस्तु अत्रैव स्थगयामः वा
आं भगिनि
अस्तु नमस्कारः
धन्यवादः
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 पुनर्मिलामः